गुरु श्लोकम् देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पति। गुरु श्लोकम् देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पति। गुरु श्लोकम् देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम्